वर्णाम हरिणीं सुवर्ण रजतस्रजाम् चन्द्राम् हिरण्मयीं लक्ष्मीं जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीम् अनपगामिनीं यस्यां हिरण्यं विन्देयं कामश्वं पुरुषानहम् अश्वपूर्वां रथमध्यां हस्तिनाद प्रबोधिनीं श्रियं देवीमुपह्वये श्रीर्महादेवीर्जुषतां कांसोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णां तां विहोपह्वये श्रियम् चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारा तां पद्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वां वृणे आदित्यवर्णे तपसोति जातो वनस्पतिस्तव वृक्षोत बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी उपैतु मां देवसख कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिं वृद्धिं ददातु मे शुद्धिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वां निर्नुद मे गृहात् द्वारां दुरादर्शां नित्यपुष्टां करिषिणीं ईश्वरी गुं सर्वभूतानां तामिहोपह्वये श्रियम् गन्धद्वारां दुरादर्शां नित्यपुष्टां करिषिणीं ईश्वरी गुं सर्वभूतानां तामिहोपह्वये श्रियम् काममाकूतिं वाच सत्यमश्रीमहि पशूनां रूपमन्नस्य महि श्रीशयतां यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियं वासय मे कुले मातरं पद्ममालिनी पापसृजन्तु स्निग्धानि तव समे गृहे निज देवी मातरं श्रियं वासय मे कुले आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावह आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो महावह तां महावह जातवेदो लक्ष्मीं मनपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् यशुचित् प्रयतो भूत्वा जुहुयादज्यमन्वहं श्रियं पञ्चदशर्चं च श्रीकामं सततं जपेत् महालक्ष्म्यै च विद्महे महाश्रियै धीमहि तन्न श्री प्रचोदयात्।